नमस्सर्वेभ्यः। अद्य शिक्षावर्गस्य चतुर्दशः पाठः, सेप्टेम्बर् मासस्य पञ्चदशः दिनाङ्कः। प्रार्थनया आरम्भं कुर्मः। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गतवर्गे काव्यांशेषु सुभाषितस्य अध्ययनं कृतवन्तः। दम्भेन लोभेन भिया ह्रिया वा इत्येतस्य तथा प्रहेलिकाद्वयं लौकिकन्यायान् च ज्ञातवन्तः। इस् एवरीबडी एबल् टु हियर् मी? श्रूयते सर्वैः? ओके, धन्यवादः। सो केनचित् न श्रूयते इति उक्तम्, अतः पृष्टम्। हा, सो यजमानेन कस्वर्गहेतुः सम्यक् विधीयते, यागविधिः, तत्र आद्यन्तयोः वर्णौ विहाय गोत्वं कुत्र स्थितं वद। सो गवि इति प्रहेलिका, पुनश्च काकान्ता कालिया रातेः इत्येषा प्रहेलिका च अधीता, केचन लौकिकन्यायाः दृष्टाः। अद्य वयं सन्धिद्वयं पश्यामः। हल्सन्धिषु अन्तिमं सन्धिद्वयं वस्तुतः, तत्र प्रथमः सन्धिः पूर्वसवर्णसन्धिः इत्युच्यते। परसवर्णसन्धिः दृष्टः, अनुस्वारस्य वर्गपञ्चमवर्णे परे परसवर्णः भवति इति। अयं तु पूर्वसवर्णसन्धिः। आदौ कानिचन उदाहरणानि पश्यामः। षड्ढयाः वेगेन धावन्ति, षड्ढयाः वेगेन धावन्ति। तत्र षड्ढयाः इति पदं षड्ढयाः इत्यस्ति। तत्र सन्धिच्छेदे षड्ढयाः इति भवति। हकारस्य ढकारः आदेशः भवति। गुरूणाम् आज्ञायाः पालनम् अस्मद्धिताय भवति। अस्मद्धिताय, अस्मद्धिताय इत्यस्ति सन्धिच्छेदे अस्मद्हिताय। अस्माकं हितं, फार् आर् वेल्फेर्। सो षड् हयाः, हयाः नाम अश्वाः ज्ञायते किल। सो षट् अश्वाः वेगेन धावन्ति इत्यर्थः। गुरूणाम् आज्ञायाः पालनम् अस्मद्धिताय भवति, अस्माकं हिताय एव गुरुवचनं भवति इत्यर्थः। महान्तं लाभं प्राप्य सन्तोषेण वणिघसति, वणिघसति। तत्र वणिघसति इति छेदः। सो महान्तं लाभं प्राप्य, सो लाट् आफ् प्रॉफिट्, लाभः। सो तत् प्राप्य सन्तोषेण वणिग् यः क्रयविक्रयं करोति सः वणिग्, सः हसति इत्यर्थः, सन्तोषेण हसति इत्यर्थः। सो अत्र सर्वत्र हकारः अस्ति, हकारस्य ढकारः, अत्र धकारः, अत्र घकारः. सो पूर्वतनं वर्णम् आश्रित्र डकारः अस्ति, तस्यैव महाप्राणः ढकारः. सो दकारः अस्ति, तस्यैव महाप्राणः धकारः. गकारः अस्ति, तस्यैव महाप्राणः घकारः. आदेशः भवति, स एव पूर्वसवर्णसन्धिः. सो पूर्ववर्णः, सो हकारः तस्य पूर्वं यः वर्णः तस्य सवर्णः आदेशः भवति इति सन्धिः. सो नियमः एवं भवति, वर्गतृतीयः कस्यचित् वर्गस्य तृतीयः वर्णः गजडदब भवति, तस्मात् हकारे परे हकारस्य स्थाने वर्गचतुर्थः आदेशः भवति. सो हकारस्य स्थाने तस्यैव वर्गस्य, यः पूर्वं वर्णः अस्ति, सो तस्य वर्गस्य चतुर्थः वर्णः आदेशः भवति. घ झ ढ ध भ, एषः पूर्व क्षम्यताम् अत्र पूर्वसवर्णसन्धेः नियमः. तत्र टङ्कनदोषः अस्ति, हेडिङ्ग् अयं पूर्वसवर्णसन्धिः. एकं क्षणं परिवर्तयामि. अनन्तरं एषः अपि अंशः यथा अन्येषु बहुषु सन्धिषु दृष्टम्, आदौ जष्ट्वं भवति, अनन्तरं पूर्वसवर्णः भवति. उदाहरणार्थं जगत् शब्दः अस्ति, जगत् हितम् इत्यस्ति चेत् आदौ जष्ट्वसन्धिः भवति, जगद् हितम्. तदनन्तरं यत्र तृतीयः वर्णः अस्ति तत्र परसवर्णसन्धिः भवति, जगद्धितम्, जगद्धितम् इति भवति. एवं मत् हारः, मम हारः इत्यर्थे समासे मत् हारः. सो जष्ट्वे मद् हारः, ततः पूर्वसवर्णः. क्षम्यतां, सर्वत्र अनवधानेन परसवर्णः इत्यस्ति. सो मद्धारः, मद् हारः, दकारस्य धकारः भवति, मद्धारः इति भवति. नियमः स्पष्टः इति भावयामि. अद्य अग्रे किञ्चित् अभ्यासं कुर्मः. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु. राजेश नायर,
तदधितं, तद्धितं,
हां, तद्धितं, हकारस्य धकारः,
पतत् प्लस हिमं, पतद्धिमं.
सम्यक्, धन्यवादः. सो अत्र आदौ जष्ट्वं भवति, पतद् हिमं, सो पतद्धिमम् इति भवति. सुधा श्रीकान्त,
सम्राड् प्लस् हसति, इट् विल् बी सम्राड्ढसति.
सम्यक्, सो सम्राड्ढसति, हकारस्य ढकारः.
This I don't know.
You can try. Up, haradaha. So, adav jashtvam bhavati
aparad okay apradah
abhradah pakarah abhradah samyak so adav jashtvam bhavati pakarasya bakarah abhradah tatah hakarasya bhakarah abhradah अप इत्युक्ते जलम ह्रदः इत्युक्ते सरोवरः एकः बृहत् लेक सरोवरः सो अभ्रदः जलस्य सरोवरः इत्यर्थः सुलोचना
वा नमस्ते
हाँ
वाग्चीनः आदौ जष्टं भवति वर्गस्य चतुर्थः वर्णः आदेशः वाग्चीनः
सम्यक् वाग्घीनः वाग्घीनः इति भवति
वर्गस्य चतुर्थः वर्णः आदेशः तथा दा धावत् हिरणम्
हरिणः धावत् हरिणः
हरिणः
धावत् हरिणः हकारस्य धकारः भवति धावत् हरिणः सो यः हरिणः धावति सः धावत् हरिणः वाग्घीनः यः वक्तुं न शक्नोति वाक् नास्ति सः वाग्घीनः इति सो अग्रे सन्धिच्छेदं कुर्मः स्वयं प्रभा
नमस्ते भगिनि
षड्
हर्म्याणि
सम्यक् षड् हर्म्याणि हर्म्यं नाम गृहं षड् गृहाणि इत्यर्थः षड् हर्म्याणि
सत् धेतुः सत् आदौ जष्टं भवति सद् सद् धेतुः
सद् हेतुः सो सत् हेतुः आदौ जष्ट्वं सत् सद् हेतुः ततः सद्धेतुः सो तर्कशास्त्रे प्रसिद्धमस्ति सद्धेतुः असद्धेतुः हेतुः नाम कारणं तत्र तर्कशास्त्रे यत्र वयं किमपि हेतुः इति अनुमानम् इति पारिभाषिकं पदं सो समीचीनं कारणम् इत्यर्थः सद्धेतुः अग्रे उषा
भवतं बृहद्धर्म्यं बृहद् हर्म्यम् अनन्तरं बृहत् हर्म्यम्
सम्यक् सो बृहत् हर्म्यं हर्म्यं पुनः गृहम् इत्यर्थः बृहद्धर्म्यम्
सुहृद् हृष्टः सुहृत् हृष्टः
सुहृत् हृष्टः सो सन्तुष्टः सुहृत् सुहृत् मित्रम् इत्यर्थः सो सुहृत् हृष्टः पद्मनाभन्
नमस्ते षड्धाराः हाराः
षट् हाराः षड्धाराः सम्यक्
अब्भविः अप् भविः
अप्
भविः अप् जष्ट्वसन्धि अब् भवि हविः
हविहि सम्यक्. सो अप हविहि बिकम्स अब हविहि. सो हविस टू अप और अपाम हविहि जलस्य हविश इत्यर्थः. सो अप हविहि बिकम्स अब हविहि. अयम पूर्व सवर्ण संधि हकारस्य स्थाने पूर्वं यः वर्णः अस्ति तस्य वर्गस्य चतुर्थः वर्णः आदेशः भवति. अनन्तरं एषः संधिः विकल्पः वैकल्पिकः ऑप्शनल. सो करणीयम् एव इति नास्ति. सो जगद् हिताय इत्यस्ति. यदि संधिं कुर्मः तदा जगद्धिताय इति भवति. न कुर्मः चेत् जगद्धिताय इत्यपि भवति. उभयं समीचीनं. वैकल्पिकः संधिः. संधिः द्विविधः भवति. नित्यसन्धिः वैकल्पिकसन्धिः इति. पूर्वसवर्णसन्धिः विकल्पेन भवति ऑप्शनल. अतः तद्विना अपि जगद्धिताय इत्यपि वक्तुं शक्यते. जगद्धिताय इत्यपि भवति. एवमेव वणिघसति. यदि पूर्वसवर्णसन्धिः क्रियते तदा वणिघसति. नो चेत् वणिघसति. सन्धिः स्पष्टः इति चिन्तयामि. सरलं. केवलं हकारस्य वर्गस्य चतुर्थवर्णः आदेशः. हल् सन्धिषु अन्तिमः सन्धिः छत्वसन्धिः भवति. छत्वसन्धेः कानिचन उदाहरणानि आदौ पश्यामः. वाक्छस्त्रं बहु तीक्ष्णम् इति वाक्यम्. अत्र एकः प्रश्नः अस्ति. अत्र पूर्वत्र सन्धिषु बृहत् बृहद्धर्म्यम् इति एकं दत्तं. बृहत् हर्म्यम् इति. तत्र बृहत् धर्म्यम् इत्यस्ति चेदपि तदेव रूपं भवति. केवलं जष्ट्वं भवति बृहद्धर्म्यम् इति. प्रसङ्गम् आश्रित्य अर्थः अर्थम् अनुसृत्य सन्धिच्छेदः तत्र कर्तव्यः. बृहत् धर्म्यं भवति वा बृहत् हर्म्यं भवति वा इत्यत्र उभयं भवति. सो उभयं साधु. तस्मिन् प्रसङ्गे कः अर्थः विवक्षितः इति द्रष्टव्यम्. वाक्छस्त्रं बहु तीक्ष्णम् अस्ति. वाक्छस्त्रं वाक्छस्त्रम् इति तत्र सन्धिच्छेदे वाक्शस्त्रम्. सो द वेपन् आफ् स्पीच् बहु तीक्ष्णं वेरि शार्प्. सो वाक्छस्त्रं बहु तीक्ष्णम्. सो वाक्शस्त्रं शकारस्य छकारः. सम्राट् छूरः भवेत्. सम्राट् छूरः तत्र सन्धिच्छेदे सम्राट् शूरः. सो शकारस्य छकारः. सम्राट् महाराजः. सो बहूनां राज्ञाम् अधिपतिः सम्राट् एम्परर् इत्युक्ते सः शूरः भवेत्. बालः मृच्छकटिकया क्रीडति. मृच्छकटिकया तत्र मृच् छकटिका इत्यस्ति. तत्र मृच् शकटिका. सो शकारस्य छकारः. सो सर्वत्र पश्यामः छत्वसन्धिः इत्युक्ते छकारः आदेशः भवति. अत एव छत्वम् इत्युच्यते. छत्वसन्धिः. कः नियमः कुत्र भवति एषः सन्धिः इति पश्यामः चेत् वर्गस्य प्रथमः वर्णः भवति. क च ट त प. सो अत्र पश्यन्तु क ट च अस्ति. सो वर्गस्य प्रथमः वर्णः भवति ततः शकारः भवति तदनन्तरं शकारस्य अनन्तरं स्वरः अथवा हयवरल एते वर्णाः अथवा वर्गस्य पञ्चमवर्णाः भवेयुः इत्यपि नियमः सो यत्र शकारः अस्ति शकारात् पूर्वं प्रथमवर्णः शकारात् अनन्तरं स्वरः अत्र अकारः अस्ति ऊकारः अस्ति अकारः स्वरः अथवा हयवरल अथवा वर्गपञ्चमः यदि प्रत्याहाराणां विषये जानन्ति तत्र अम् इति प्रत्याहारः भवति ये न जानन्ति ते चिन्तां न कुर्वन्तु एतद् भवति ये जानन्ति तेषां कृते स्मर्तुं सुलभं भवति ऐ उन् ऋलक् ए ओं ऐ औच् हयवरट् लण् न्यमाङ्गण नम् अम् अकारात् मकारपर्यन्तं प्रत्याहारः सो अम् वर्णः भवेत् शकारस्य अनन्तरं तदा शकारस्य स्थाने छकारः आदेशः भवति सः छत्वसन्धिः इत्युच्यते तत्र एकं स्मर्तव्यम् एकं क्षणम् छत्वसन्धेः पूर्वं बहुत्र श्चुत्वसन्धिः दृश्यते यथा सत् शास्त्रम् इत्यस्ति तत्र शकारः अस्ति तवर्गस्य शकारे परे चवर्गः भवति श्चुत्वसन्धिः आदौ दृष्टवन्तः स्मरन्ति इति भावयामि अतः तकारस्य स्थाने आदौ चकारः भवति सच् शास्त्रं सत् शास्त्रम् इत्यस्ति आदौ यत्र तवर्गान्तः तवर्गान्तं पदं भवति शब्दः तकारान्तः अथवा दकारान्तः भवति तत्र आदौ श्चुत्वसन्धिः भवति सो सच् शास्त्रं तदनन्तरं छत्वसन्धिः भवति सच्छास्त्रम् अतः सच्छास्त्रम् इति दीयते चेत् वस्तुतः विभागः सत् शास्त्रम् तत्र श्चुत्वसन्धिः अपि अस्ति छत्वसन्धिः अपि अस्ति सो एवमेव तवर्गान्तः अस्ति चेत् श्चुत्वं छत्वं दकारान्तः शब्दः अस्ति चेत् तत्र चर्त्वं श्चुत्वम् अनन्तरं छत्वं भवति उदाहरणार्थं मृद् शकटिका तत्र मृच्छकटिका इति दृष्टवन्तः कः अर्थः मृद् शकटिका मृद् मृद् मड् इत्यर्थः सो मृद् आर् क्ले सो मृच्छकटिका क्ले कार्ट् एकं प्रसिद्धं नाटकमपि अस्ति मृच्छकटिकम् इति सो मृद् शकटिका शकटिका नाम लघु शकटं सो मृदा निर्मितं क्रीडाशकटम् इत्यर्थः सो मृद् शकटिका तत्र आदौ किं भवति एषः कर्कशव्यञ्जन कर्कशवर्णः अतः आदौ तकारः भवति मृत् शकटिका चर्त्वसन्धिः भवति ततः श्चुत्वसन्धिः भवति मृच् शकटिका ततः छत्वसन्धिः भवति मृच्छकटिका सो छत्वसन्धेः छेदः मृच् शकटिका किन्तु ततः पूर्वमपि चर्त्वं श्चुत्वं सर्वं भवति ओके अतः मृच्छकटिका इति भवति सो मृच्छकटिका इत्यस्य छेदः मृत् शकटिका इति वक्तुं शक्यते अथवा मृद् शकटिका इति उभयं साधु उभयं स्वीक्रियते सो सामान्यतः वर्गस्य प्रथमवर्णः मृत् शकटिका इति उच्यते सो एतदपि वदामि, पाणिनीयप्रक्रियाम् अनुसरामः चेत् सन्धीनां क्रमः किञ्चित् भिन्नः भवति. अत्र सरलतया अवगमनार्थम् एवं क्रमः प्रदर्श्यते. पाणिनीयक्रमे रूपं समानं किन्तु क्रमः किञ्चित् भिन्नः भवति. भवतु, एवं यत्र छत्वसन्धेः छेदः कर्तव्यः तत्र श्चुत्वसन्धिं ज्ञात्वा तस्यापि छेदः कर्तव्यः, तदैव अवगमनं भवति. नो चेत् सच् शास्त्रं, सच् नाम किम् इति सन्देहः भवति. सो वस्तुतः तत् सत् शास्त्रं, सच् शास्त्रं, सच्छास्त्रम्. सो मृद् शकटिका, मृत् शकटिका, मृच् शकटिका, मृच्छकटिका इति भवति. अवगतम् इति भावयामि. केऽपि प्रश्नाः सन्ति वा? अग्रे गच्छामः तर्हि, अभ्यासं कुर्मः. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु. अविनाश वैद्य.
तद् प्लस् श्लोकः
किं भवति? आदौ चर्त्वं भवति. सो
तच् श्लोकः
श्चुत्वम् अस्ति. तच् श्लोकः,
तच् श्लोकः, देन् आफ्टर् तच् श्लोकः, तच् श्लोकः,
तच् श्लोकः,
तच् श्लोकः,
तच् श्लोकः,
तच् श्लोकः,
तद् श्लोकः, इट् बिकम्स् तत् श्लोकः, तच् श्लोकः, तच् श्लोकः.
बृहत् शकटं, बृहद् शकटं, देन् बृहद् जस्त्वसन्धि, बृहद् शकटं फस्ट्.
किन्तु तकारः अस्ति चेत् अत्र साक्षात् श्चुत्वं कर्तुं शक्यते. यत्र तवर्गः अस्ति तत्र छत्वसन्धिः इत्युक्ते च छ इत्येव भवति सर्वत्र. सो च छ
बृहत् शकटं,
बृहत्
शकटं.
आम्. सो प्रथमवर्णस्य श्चुत्वं भवति तदा चकारः भवति, शकारस्य छकारः. सो च छ तदेव छत्वसन्धेः मोस्ट् कामन् किम् उच्यते, बहु सामान्यतः छत्वसन्धिः इत्युक्ते च छ यत्र दृश्यते तत्र सामान्यतः छत्वसन्धिः भवति. यतोहि तवर्गान्ताः शब्दाः एव अधिकाः. सो च छ, सो बृहच्छकटं, तच्छ्लोकः, मृच्छकटिका, सर्वत्र चकारः छकारः इति सामान्यतः स एव भवति. ललिता सिंह, यू हैव टू अनम्यूट योरसेल्फ.
नमस्कारम्. महत् शास्त्रम्, महच् शास्त्रम्. So, ta will become cha, and sha will become cha. So, mahach shastram.
महच्छास्त्रम् सम्यक्
महच्छास्त्रम्
उत्तमम्
विट नशंकरः
अत्र केवलम्
छत्वम् विट शंकर शंकरः
ओनली शकारस्य छकारः
सो विच शंकरः
विट शंकरः
विच शंकरः
विट शंकरः
शंकरः
सो यत्र पूर्वं तवर्गस्य वर्णः अस्ति तत्र च छ उभयं परिवर्तनीयं भवति अन्यत्र केवलं शकारस्य छकारः भवति केवलं छत्वं सो तवर्गस्य वर्णः अस्ति चेत् श्चुत्वं भवति तवर्गस्य अतः चकारः भवति शकारस्य छकारः उभयं भवति च छ तवर्गं विना अन्यः वर्गः अस्ति चेत् केवलं शकारस्य छकारः विट् छङ्करः तावदेव अग्रे पश्यामः निर्मला
वाक् प्लस् शरः वाक् प्लस् शरः वाक्षरः
सम्यक् वाक्षरः सो अदर् देन् तवर्ग केवलं शकारस्य छकारः वाक्षरः वाग्बाणः इत्युच्यते वाणी वचनम् एव शरः बाणः इत्यर्थः
दावत् प्लस् शशः दावच्छशः
धावच्छशः चकारः तवर्गः आगच्छति चेत् झटिति चकारः छकारः धावच्छशः धावच्छशः सम्यक् सो इदानीं सन्धिच्छेदं कुर्मः स्वामिनाथन्
सद् शील सत् शील सत्
शील सो सत् शीलं विकम् सत् शीलं सो अत्रापि सन्धिच्छेदेपि स एव क्लू सो च छ अस्ति चेत् तवर्गः भवति सो इन्स्टेड् आफ् चकारस्य तकारः छकारस्य शकारः इति स्मर्तुं शक्यते सत् शीलं सत् शीलम् उत्तमं चरित्रम् इत्यर्थः No, you leave it because it is a karkasha vyanjana. Right. So, I mean, even if you do jashtva, you will have to do chartva again. So, it will come back to satshilam. Because chartva sandhi is when our vargiya vyanjana is followed by karkasha vyanjana. Shakara is always karkasha varna. So, if you start with the, you can come to the first and then go to the this one. Otherwise, this is Sat Shilam. Because Sat is originally a Takaranta word.
Okay.
So, if it were Tat Shilam, then Tad Shabdaha. So, then you can either say Tat Shilam or Tad Shilam.
Okay.
So, if the word is originally Takaranta, you can say either. But if it is Takaranta, it is T. So,
okay. विशक् शेते
भिषक् शेते सम्यक् सो भिषक् शेते हा धन्यवादः सो अर्थः सच्छीलं गुड् कॉन्डक्ट् गुड् कैरेक्टर् इत्यर्थः भिषक् शेते भिषक् वैद्यः डॉक्टर् शेते निद्राति भिषक् शेते Shobha Madhi.
Ut Shwasaha.
Ut Shwasaha. So, cha cha asti che takaraha. So, ut Shwasaha. Ut Shwasaha.
Abhavat Shivam. Abhavat Shivam.
Samyak. Abhavat Shivam. Abhavat Shivam. So, Uchvasa Nishvasa. So, Utshvasa. Drawing in the breath. So, inhalation is called Uchvasa. Exhalation is called Nishvasa. Uchvasa Nishvasa. So, Shvasaha Ut Upari Svikriyate Ityarthaha. Abhavat Shivam. Shivam Nama Mangalam. So, something good. So, Abhavat. Abhavat Shivam. Auspicious. So, Agre. Vijayashri. Ouch. Sorry.
Yeah. Namaste. Jalamukshetaha. Jalamuk. Shvetaha.
Jalamuk Shvetaha. Jalamuk
Shvetaha.
Jalamuk Meghaha cloud ityarthaha. Shvetaha Meghaha. Jalamuk Shvetaha.
Kridat Shishuhu. Kridat Shishuhu.
Samyak. Kridat Shishuhu. So, a playing child. Kridat Shishu. So, cha cha shchutvam chatvam samanyataha militva bhavati tat nyatavyam. Etadapi asti chatva sandhihi api vaikalpikaha sandhihi and optional. Yatha purva savarna sandhihi tatha. Ataha vak shastram ityasti chet. Vakshastram ityapi shuddham. Vakshastram ityapi shuddham. So, samrat shuraha. So, samrat shuraha. Athava samrat shuraha. So, tad shivaha. Tat shivaha. Athava tat shivaha. Tetasmartavyam chattva santhihi eva vikalpaha. Chartvam tu karaniyam eva. Chartvam nityam. Shchutvam api nityam. Ataha tad shivaha ityastiche. So dakarasya takaraha. Takarasya chakaraha. Tattu bhavatyeva. Tatra option nasti. Chartvam kevalam vikalpena bhavati. Ataha tach shivaha. Tach shivaha. Ubhayam bhavati. So, Purva Savarana Sandhihi, Chattva Sandhihi, Iti Sandhidvayam, Vikalpena Bhavati. Kintu na Jnatavyam iti nasti, Yatra Prayogahasti, Prayogyasya Jnanartham, Sandhihi tu Jnatavyaha eva. So, Bhavadhihi yada kriyate, tada Icchanti chet, Kurvantu no chetna, Kintu Prayoge Yatra Sandhihi Kritaha, Tasya Jnanartham, Sandhi Niyamaha Jnatavyaha Eva. So, Vikalpaha Kilahataha Tyajamaha Iti Nasambhavati. Yati hi Samanyataha Kavyeshu Athava Granthanyada Pathamaha Tada Sandhim Kritva Eva Prayogaha Bhavanti. Ataha Sarve Sandhayaha Jnatavyaha Bhavanti. Atra Dvitraha Prashnaha Santi. Jalamukchvetaha ityatra jalamuch iti bhavativa iti prashnaha tatra pratipadikam jalamuch iti kintu prathama vibhaktau ekavachane jalamuk iti rupam so atra prathamantam svikritam jalamuk shvetaha ityatra pratipadikam svikritya samasaha api vaktum shakyate. इस् देर् अ रूल् फार् विकल्प इत्युक्ते यत्र पाणिनिः सन्धिं वदति तत्र सन्धिसूत्रे एव विकल्पः इति सूचना भवति. यथा पूर्वसवर्णसन्धेः सूत्रमस्ति झयोहोऽन्यतरस्यामिति, सो अन्यतरस्याम् इत्युक्ते विकल्पेन भवति इत्यर्थः. सो सूत्रे तत् नित्यं वा विकल्पेन वा इति भवति. सो यत्र सूत्रे विकल्पः इत्यस्ति तत्र विकल्पः इति स्वीकुर्मः. अनन्तरं तच्छम् इत्यत्रापि अयं सन्धिः अस्ति वा इति सत्यं. तत् शम् इति भवति, तत्र तच्छम् इति छकारस्य तच्छञोः आवृणीमहे इत्यत्र भवति, छत्वसन्धिः भवति. अन्यः प्रश्नः, मया उत्तरं दत्तं सर्वेषां ज्ञानार्थं, सच्चित् इत्यत्र छत्वसन्धिः अस्ति वा इति. तत्र नास्ति, तत्र सत् चित् चकारः वस्तुतः चकारः एव अस्ति. तत्र केवलं श्चुत्वं भवति. सत् चित् सच्चित् छत्वसन्धौ महाप्राणः छकारः. यत्र मूले शकारः अस्ति तस्य छकारः भवति चेत् छत्वसन्धिः भवति. अन्ये केऽपि प्रश्नाः सन्ति वा? अद्य सन्धिद्वयम् अधीतम्. अनेन हल् सन्धयः समाप्ताः. दश हल् सन्धयः अस्माभिः अधीताः सन्ति. सो श्चुत्वं श्रुत्वं जष्ट्वं चर्त्वम् अनुस्वारः परसवर्णः पूर्वसवर्णः छत्वसन्धिः अनुनासिकसन्धिः गमुडागमसन्धिः इत्येवं दश हल् सन्धयः अस्माभिः अधीताः. अस्य वर्गस्य अभ्यासे सर्वेषां सन्धीनां मिलित्वा किञ्चित् अभ्यासं ददामि. सो तेन कुत्र कः सन्धिः भवति इति किञ्चित् अभ्यासं कुर्मः. अनन्तरं विसर्गसन्धिः भवति. सो अग्रे विसर्गसन्धीन् जानीमः. अनन्तरं सुभाषितानि, त्रीणि सुभाषितानि दत्तानि आसन् गृहकार्यार्थं. केऽपि प्रयत्नं कृतवन्तः वा तस्य अन्वयाधिकरणे? हस्तम् उन्नयन्तु. यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् एवं पुरुषकारेण विना दैवं न सिध्यति इति प्रथमं सुभाषितम्. सो ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु कृपया. पद्मनाभन् महोदय.
क्रियापदद्वयं दृश्यते. ओ सन्धि फर्स्ट्. हि एकेन चक्रेण न रथस्य गतिः भवेत् एवं पुरुषकारेण विना दैवं न सिध्यति.
सम्यक्. कः सन्धिः अस्ति?
हि एकेन तत्र यण् सन्धि अस्ति. गतिः गतिर्भवेत् गतिः भवेत् विसर्गसन्धिः. अन्यापि सन्धिः न दृश्यते.
अत्र अनुस्वारसन्धिः अस्ति.
दैवं न अनुस्वारसन्धिः. अनुस्वारः परे कर्कश व्यञ्जनः देयरफॉर
अनुस्वारः भवति. नेक्स्ट आङ्ग्लेन अपि वक्तुं शक्यते सामान्यर्थः अवगमनार्थमेव.
Just as with a single wheel, the chariot doesn't go, you know, chariot doesn't succeed in going, succeed in moving. Same way, evam, without the effort of a man or a person, the deva, daivam, the heavenly help or godly help does not occur.
Correct. So human effort is important. Ityarthah purushakarah nama purusha prayatnah manushya prayatnam vina kevalam daivena sarvam labhyate iti na bhavati. Asmakam prayatnah asti chet daivasya sahayyam api labhyeta ityarthah.
वाक्य विश्लेषण यथा अन्वय अव्यय अपि अव्यय एकेन एक
तृतीय
चक्रेण तथापि तृतीया विभक्ति एकवचनं पुल्लिङ्ग न अव्यय रथस्य अकारान्त पुल्लिङ्ग षष्ठी एकवचनं आफ् रथप्रातिपदिकं गतिः प्रथमा एकवचन आफ् गति स्त्रीलिङ्गशब्द इकारान्त स्त्रीलिङ्गशब्द ओके भवेत् विधिलिङ्ग प्रथमपुरुष एकवचन आफ् भू धातु एवम् अपि अव्यय पुरुषकारेण समास तृतीया एकवचन पुरुषकारण पुरुषकार प्रातिपदिकं विना अव्ययं दैवं दैवं अकारान्त नपुंसकलिङ्गम् प्रथमा एकवचनं न अव्ययं सिद्ध्यति लट्लकार साग सिद्ध्यति प्रथमपुरुष एकवचन
अन्वयं कुर्मः.
एकेन चक्रेण हि यथा न रथस्य गतिः भवेत् एवं पुरुषकारेण विना दैवं न सिद्ध्यति.
तत् अन्वयः सत्यं. सो कथम् आकाङ्क्षाक्रमेण
प्रथमवाक्य का भवेत् गतिः भवेत् गतिः न भवेत् कस्य गतिः रथस्य गतिः केन प्रकारेण एकेन चक्रेण मन्यते यथा हि
So yatha is a connecting word. So prasnaha na prekshitaha yatha yena prakarena.
Yena prakarena. Okay.
Evam. Tena prakarena.
Evam. Yeah. Tatha eva. It's like, right? Tatha eva. Purushakarena. Then kim na siddhyati?
Na siddhyati.
Kim na siddhyati. Kim na siddhyati daivam. Na siddhyati.
Kena vina purushakarena vina na siddhyati.
Yeah.
So vyakaranam shahatu purvameva uktaha.
Yeah.
Samyak. Dhanyavadaha. So atra kaha bhedaha iti chet vakya vishleshane kevalam kim kriyapadam ke vibhaktayaha. काह विभक्तयः भवेत् सिद्ध्यति इति क्रियापदद्वयम् गतिः दैवम् इति प्रथमा विभक्तिः एकेन चक्रेण पुरुषकारेण इति तृतीया विभक्तिः रथस्य इति षष्ठी अन्यत् सर्वम् अव्ययम् सो एतदेव वाक्यविश्लेषणम् एतत्तु विभक्तिज्ञानार्थं कथम् अन्वयः कर्तव्यः इति ज्ञानार्थं क्रियते सो अनन्तरम् आकाङ्क्षाक्रमेण अन्वयः सो यथा भवेत् न भवेत् न सम्भवति किं न भवेत् गतिः गमनं कस्य गतिः रथस्य स्यन्दनस्य गमनं केन न भवेत् चक्रेण चक्रं रथाङ्गम् इत्युच्यते सो रथाङ्गेण न भवति केन चक्रेण अथवा कति चक्रैः कतिभिः चक्रैः सो तत्र एकेन चक्रेण सो एकेनैव रथाङ्गेन चक्रेण स्यन्दनस्य गमनं यथा न सम्भवति एवं तथैव न सिद्ध्यति न फलति किं न फलति दैवं दैवं देवानुग्रहः अथवा भाग्यं न फलति केन विना न सिद्ध्यति पुरुषकारेण विना मनुष्यप्रयत्नेन विना भाग्यं न फलति देवानुग्रहः न फलति अतः अस्माभिः प्रयत्नः कर्तव्यः इति श्लोकस्य भावार्थः सो व्याकरणांशाः सरलाः एव सन्ति केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु दैवम् इति द्वितीया वा इति द्वितीया न प्रथमं दैवं सिद्ध्यति सो दैवम् इति अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्तौ एकवचनम् सो एकं चक्रं सो अकारान्तं नपुंसकलिङ्गं तृतीया एकवचनं रथः अकारान्तः पुल्लिङ्गः षष्ठी एकवचनं पुरुषकारः अकारान्तः पुल्लिङ्गः तृतीया एकवचनं सिद्ध्यति सिध् धातोः लट्लकारे प्रथमपुरुषे एकवचनं भवेत् भूधातोः विधिलिङ्लकारे प्रथमपुरुषे एकवचनम् अन्यत् सर्वमपि अव्ययम् यथा एवम् इति समानार्थकं वा इति प्रश्नः न सो यथा तथा as and thus इत्यर्थः मिलित्वा उपयोगः क्रियते यथा तथा अथवा यथा एवम् इति How do you write the root of siddhyati? Sidh. Sidh ityeva samanyastare tadeva vaktum shakyate. Sidh. So vastutaha dhatupatham pashyamaha chet. शिध इति मूलधातुः मूर्धन्यशकारः किन्तु अस्मिन् स्तरे सिद्ध इत्येव लेखितुं शक्यते, सिधु इत्यपि स्यात्, साधधातुः अपि अस्ति सिद्धधातुः सिद्ध्यति अग्रे गच्छामः. अग्रिमश्लोकः. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य, यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति. प्रसिद्धश्लोकः, नीतिशतकात् उद्धृतः. भर्तृहरेः शतकत्रयमस्ति, सुभाषितानामेव त्रिशतं श्लोकाः तेन रचिताः. तत्र नीतिशतके अयं श्लोकः अस्ति. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु. सीता नारायणन्.
नमस्ते भगिनि. पदविभागः दानं भोगः नाशः तिस्रः गतयः भवन्ति वित्तस्य, यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति. सन्धिः सर्वत्र विसर्गसन्धिः भवति. नाशस्तिस्रो भोगः तत्र नाशस्तिस्रो नाशः तिस्रः तत्रापि विसर्गसन्धिः. तिस्रो गतयो तिस्रः गतयः गतयो भवन्ति गतयः भवन्ति यो न यः न गतिः
गतिर्भवति. सम्यक्, सर्वत्र विसर्गसन्धिः.
क्रियापदं भवन्ति ददाति भुङ्क्ते भवति. प्रथमाविभक्ति दानं प्रथमवारे. दानं भोगः नाशः तिस्रः गतयः गतिः यः तृतीया तृतीयादि प्रथमम्.
आम्, तृतीया इति पदमपि प्रथमा विभक्तौ.
षष्ठी विभक्ति वित्तस्य तस्य अव्ययं न.
अव्ययं न.
अन्वयं भवन्ति क्रियापदं. के भवन्ति गतयः भवन्ति. कति गतयः भवन्ति तिस्रः गतयः भवन्ति. तिस्रः गतयः काः. दानं भोगः नाशः. कस्य तिस्रः गतयः भवन्ति. वित्तस्य तिस्रः गतयः भवन्ति. भवति कः भवति गतिः भवति. का गतिः भवति तृतीया कस्य तृतीया गतिः भवति तस्य तृतीया गतिः भवति. कीदृश तस्य यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति.
सम्यक्.
अन्वयं वित्तस्य दानं भोगः नाशः च तिस्रः गतयः भवन्ति यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति. तात्पर्यं धनस्य तिस्रः मार्गः भवन्ति परोपकारं उपयोगं स्वयमेव उपयोगं
स्वयमुपयोगः विनाशः
अतः धनस्य स्वयमेव नष्टं भवति यः धनस्य दानं न करोति अथवा स्वयमेव उपयोगं न करोति तस्य धनं किमपि न प्रयोजनाय स्वयमेव नष्टं भवति
बहु उत्तमं
व्याकरणांशं दानम् अकारान्त नपुंसकलिङ्गं प्रथम
एकवचनम्
भोगः अकारान्त पुल्लिङ्ग प्रथम एकवचनं नाशः अपि तदेव तिष्ठः इकारान्त स्त्रीलिङ्ग प्रथम एकवचनं
ऋकारान्तः स्त्रीलिङ्गः तिसृ शब्दः ऋकारान्तः स्त्रीलिङ्गः तिसृ शब्दः प्रथमाविभक्तौ बहुवचनं तिस्रः तस्य स्त्री तिसृशब्दस्य विशेषः सः नित्यं बहुवचनान्तः सो तिस्रः इत्येव भवति एकवचनं द्विवचनं न भवति यतोहि स्वभावशः एव त्रि इत्येतत् बहु भवति अतः पुल्लिङ्गे अपि त्रयः नपुंसकलिङ्गे त्रीणि स्त्रीलिङ्गे तिस्रः
गतयः अकारान्त पुल्लिङ्ग प्रथमः
न गतिः गती गतयः इकारान्तः स्त्रीलिङ्गः प्रथमाविभक्तौ बहुवचनं तिस्रः गतयः सो गतिः गती गतयः
बहुवचनं भवन्ति लट्लकारः प्रथम पुरुष बहुवचनं परस्नेपति धातुः न
भूधातु भवति
भूधातुः वित्तस्य अकारान्त पुल्लिङ्ग षष्टि एकवचनं
नपुंसकलिङ्गः वित्तम् इति अकारान्तः नपुंसकलिङ्गः वित्तं सो तस्य षष्ठी एकवचनं
यः दकारान्त पुल्लिङ्ग यत् शब्द प्रथम एकवचनं न अव्ययं ददाति लट्लकार प्रथमपुरुषः एकवचनं परस्मैपति गुम्पे लट्लकार प्रथमपुरुषः एकवचनं आत्मनेपति
भुज धातुः
तस्य अकारान्त पुल्लिङ्ग षष्टि एकवचनं
तकारान्त पुल्लिङ्ग तद् शब्दः
तकारान्त तृतीय स्त्रीलिङ्गम्
आकारान्तः स्त्रीलिङ्गः प्रथमाविभक्तिः एकवचनं तृतीया पूर्वमपि दृष्टं गतयः
ईकारान्तः स्त्रीलिङ्ग प्रथम बहुवचनं
प्रथम एकवचनम् अत्र गतयः इत्यत्र
बहुवचनं भवति लट्लकार प्रथमपुरुष एकवचनं परस्मैपति भूधातु
सम्यक्
धन्यवादः
बहु सम्यक् उत्तमः प्रयत्नः कृतः अस्ति सो सर्वं ज्ञातम् इति भावयामि सो भवन्ति के भवन्ति गतयः सो गतिः अत्र गतिः इत्युक्ते मार्गः अथवा त्री पासिबल् फेट् इत्यर्थः सो कस्य वित्तस्य धनस्य त्रयः मार्गाः भवन्ति सो त्री पाथ्स् विच् इट् केन् टेक् किं भवति के काः तिस्रः गतयः दानं भोगः नाशः दानं परोपकारार्थं तस्य विनियोगः भोगः नाम स्वस्य आनन्दार्थं तस्य उपयोगः अथवा नाशः तस्य विनाशः सो एतत् त्रयमेव सम्भवति धनेन एकम् अन्येषाम् उपयोगः भवति अथवा स्वस्य उपयोगार्थं तस्य व्ययः कर्तुं शक्यते अन्यथा नश्यति. अतः यः न ददाति न भुङ्क्ते. सो यः अन्येभ्यः अपि न ददाति स्वयमपि तस्य आनन्दं न अनुभवति. कृपणः इत्युच्यते मैसर्. सो केवलं धनस्य सङ्ग्रहेण तुष्यति, तस्य व्ययं न करोति. तत्र किं भवति तस्य धनस्य? तृतीया गतिः. सो तिस्रः गतयः इत्युक्तं प्रथमा गतिः दानं. तदेव अत्यन्तं प्रशस्तम्. अत एव दानं प्रथममुक्तं. सो अन्येषाम् उपकाराय यद्धनं दीयते तत् प्रथमा गतिः उत्तमा गतिः. अथवा द्वितीया गतिः भवति भोगः, स्वयं तस्य उपयोगः. तदपि भवत्येव अस्माकं जीवनार्थम् अस्माभिः अर्जितस्य धनस्य उपयोगः क्रियते एव. तृतीया गतिः तु नाशः. अतः यदि उभयं प्रथमं द्वितीयं वा न क्रियते तदा तृतीया गतिः निश्चयेन भवति. अन्यः मार्गः एव नास्ति. अतः अस्माभिः विचिन्त्य धनस्य उपयोगः कर्तव्यः इति भवति. सो अन्वयस्य क्रमः प्रथमार्धे भवन्ति काः भवन्ति, गतयः भवन्ति, मार्गाः भवन्ति, कति गतयः भवन्ति, तिस्रः गतयः भवन्ति, त्रयः मार्गाः सम्भवन्ति. कस्य तिस्रः गतयः भवन्ति? वित्तस्य, धनस्य तिस्रः गतयः भवन्ति. काः तिस्रः गतयः भवन्ति? दानम्. सो परेभ्यः उपकारार्थं दानं, भोगः स्वयम् उपयोगः, अथवा नाशः विनाशः इति प्रथमं वाक्यम्. द्वितीयं वाक्यं भवति भवति इति क्रियापदं. किं भवति अथवा का भवति, उभयथा अपि वक्तुं शक्यते. गतिः मार्गः, का गतिः भवति? तृतीया गतिः इत्युक्ते नाशः भवति. कस्य तृतीया गतिर्भवति? तस्य. सो कीदृशस्य? यः न ददाति, अन्येभ्यः न वितरति, न भुङ्क्ते, स्वयं तस्य उपयोगं न करोति. सो तस्य तृतीया गतिर्भवति इति अन्वयः. केऽपि प्रश्नाः सन्ति वा? अग्रे गच्छामः अग्रिमं सुभाषितं. व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत्, काषाय रसमासाद्य स्वाद्वती वाम्बुविन्दते. ये वक्तुमिच्छन्ति? लता, शेखरन्. श्रूयते भगिनि. ध्वनिः न श्रूयते. प्रायः मैक्रोफोन् समस्या स्यात् वा? Vijayashree?
Oh no, I have this problem. I don't know. In many classes, I try to participate, but this hastam is not working. What's my problem? And now I didn't do it, but it worked on it.
No, it's right. No problem. So it has been showing your hand raised for pretty some time. I think there is a small this one. If your hand is raised, it will show a down arrow. I mean, so that you can put it down if you want. Or if it is if your hand is down, it will show a green color up arrow. That's what I remember. But mama anubhavah naste, I have not been attending as an attendee. So anyway, anya kepi vaktum icchanti, you can raise your hand. Okay, Mahalakshmi.
Namaste. पदच्छेदः व्यसन अनन्तरं सौख्यं स्वल्पम् अपि अधिकं भवेत् काषायरसम् आसाद्य स्वादु अतीव अम्बु विन्दते. सन्धिः व्यसन प्लस् अनन्तरं सवर्णदीर्घसन्धि. अनन्तरं सौख्यम् and saukyam swalpam anuswara sandhi. Api plus adhikam apyadhikam. Swad plus ativa yanu sandhi. Ativa plus ambu ativam savarna dirgha sandhi. Samanyatah soon after tasting a pungent drink, even water would be extremely tasty. Likewise, after a spell of misery, even a little joy would feel great.
Exactly. Samyak.
Krishna, Kriya Padam, Bhavet, Vindate, Pratma Bhaktihi, Saukyam, Swalpam, Adhikam, Swadu, Ambu. द्वितीय विभक्तिः काषाय रसम्. षष्ठी विभक्तिः व्यसनस्य अव्ययम् अनन्तरं व्यसनस्य व्यसना.
सो देयर इज नो व्यसनस्य श्लोके तु नास्ति. सो व्यसनानन्तरम् इति प्रथमा विभक्तिः.
ओके. अव्ययम् अपि अतीव अतीव अपि अव्ययम्
आम् अतीव आम्.
ओके. अन्वयः क्रियापदं भवेत् विन्दते. किं भवेत् सौख्यं सुखं कीदृशं भवेत् स्वल्पं कथं भवेत् अधिकं कदा अधिकं भवेत् व्यसनानन्तरम् कः विन्दते स्वादु विन्दते कीदृशः.
कः इति अत्र नास्ति, कश्चिन् मनुष्यः इति अध्याहर्तव्यम्. सो कर्तृपदं नास्ति, न उक्तं श्लोके. कश्चित् सो कश्चित् इति अध्याहर्तव्यम्.
स्वादु
अम्बु अम्बु स्वादु विन्दते. स्वादु इस् टेस्टी. सो अम्बु जलम्. सो जलम् अत्यन्तं स्वादु अनुभवति. सो स्वादु इति अम्बु इत्यस्य विशेषणम्.
कथं स्वादु भवेत् अतीव
अतीव स्वादु.
ओके. किम् अतीव स्वादु विन्दते अम्बु जलम्. किं कृत्वा अम्बु स्वादु विन्दते आसाद्य. किम् आसाद्य.
हेलो.
किम् आसाद्य. काषाय रसं पुवरपानम्. ओके. अन्वयः व्यसनानन्तरं सौख्यं स्वल्पमपि अधिकं भवेत् यथा काषाय रसम् आसाद्य अम्बु अतीव स्वादु विन्दते. तात्पर्यं यथा स्वरपानं पानानन्तरं किञ्चित् जलमपि मधुरं भवेत् तथा दुःखात् अनन्तरं किञ्चित् सुखमपि महत् भवेत्.
सम्यक्.
व्याकरणांशः व्यसनानन्तरं अकारान्तपुल्लिङ्ग नपुंसकलिङ्गः प्रथमा विभक्ति एकवचनम्. हलो
वदतु सम्यक्
सौख्यं सौख्यं स्वल्पमपि अकारान्त नपुंसकलिङ्ग प्रथमाविभक्ति एकवचनम् अपि अव्ययम् अधिकम् अकारान्तः नपुंसकलिङ्ग प्रथमाविभक्ति एकवचनम् भवेत् भू धातुः परस्मैपदी विधिलिङ्ग प्रथमपुरुषः एकवचनम् काषायरसम् अकारान्तः नपुंसकलिङ्ग द्वितीयाविभक्ति एकवचनम् आसाध्य अव्ययं लबन्तम् स्वादु अकारान्तः पुल्लिङ्गः
स्वादु उकारान्तः नपुंसकलिङ्गः द्वितीयाविभक्तिः एकवचनम्
अतीव अव्ययम् अम्बु उकारान्त नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनम् विन्दते विन्द धातुः आत्मनेपदी लट् लकार प्रथमपुरुषः एकवचनम्
विदु धातुः आत्मनेपदी लट् लकारः प्रथमपुरुषः एकवचनम् सम्यक् धन्यवादः अत्र प्रथमं वाक्यं सरलमस्ति इत्युक्ते व्यसनानन्तरं दुःखस्य अनुभवानन्तरं स्वल्पमपि सौख्यं सो किञ्चिदपि सुखम् अथवा आनन्दः अधिकं महत् भवेत् महत् इति भासते वस्तुतः तत् महत् न भवेत् किन्तु तथा भासते इत्यर्थः द्वितीयं वाक्यं द कन्स्ट्रक्षन् इस् स्लैट्लि आड् अत्र कश्चित् पुरुषः विन्दते विन्दते इत्यस्य वस्तुतः अर्थः प्राप्नोति इत्यर्थः धनं विन्दते सुखं विन्दते इति अत्र तु अनुभवति इत्यर्थः युज्यते अत्र श्लोकस्य अन्वये सो विन्दते अनुभवति सो किम् अनुभवति अतीव स्वादु सो अत्यन्तं रुचिकरम् अनुभवति सो किम् अतीव स्वादु विन्दते अम्बु जलम् अत्यन्तं रुचिकरम् इति अनुभवति सो किं कृत्वा अम्बु अतीव स्वादु विन्दते आसाद्य सो आसाद्य इत्यस्यापि प्राप्य इत्येव अर्थः वस्तुतः अर्थः आसाद्य विन्दते उभयोरपि प्राप्नोति प्राप्य इत्यर्थः अत्र तु पीत्वा अथवा अनुभूय इत्यर्थः सो हेविङ्ग् experienced kashaya rasa, a person feels that even water is very tasty. So, kasha asadhya anubhuya, kim anubhuya, kashaya rasam. So, kashayasya swadam, so tuvara rasam, tuvara swadam anubhuya, jalam api atyantam ruchikaram anubhavati yatha, tatha dukkhasya anantaram kinchidapi sukham, बहु महत् इति भासते इत्यर्थः सो आसाद्य आ उपसर्गः सद् धातुः ल्यबन्तम् अव्ययं भवति स्वादु अम्बु अम्बु अम्बुनी अम्बूनि उकारान्तः नपुंसकलिङ्गः द्वितीयाविभक्तौ एकवचनम् एवमेव स्वादु इति तस्य विशेषणं स्वादु स्वादुनी स्वादूनि उकारान्तः नपुंसकलिङ्गः द्वितीया एकवचनम् अन्यत् सर्वं स्पष्टं स्यात् एनी अदर् क्वश्चन् प्रश्नाः सन्ति वा स्वादु इत्यस्य कः अर्थः रुचिकरं स्वादः इस् टेस्ट् सो यस्य स्वादः भवति तत् स्वादु टेस्टि सो यत् रुचिकरं रुचियुक्तं रसयुक्तम् इत्यर्थः So, Swadu Ambu iti dvitiya vibhaktihi va? Am. Swadu Ambu iti dvitiya vibhakti. So, सुकाशाय रसम इत्यत्र समासः वा आम काषायम रसम काषाय रसम कषायस्य इदं काषायम सुकाषायम रसम काषायः रसः काषाय रसः कर्मधारय समासः अत्र विभक्तिः प्रथमवाक्ये सौख्यम अधिकं भवेत् इति सौख्यम कर्तृपदम् अतः तत्र प्रथमा विभक्तिः द्वितीये तु स्वादु अम्बु इति द्वितीया विभक्तिः भवति सो विद् धातुः विद्यते इति न भवति वा इति प्रश्नः वस्तुतः चत्वारः विद् धातवः सन्ति संस्कृते भिन्नेषु धातुषु अर्थः भिन्नः विदज्ञाने इत्यस्ति वेत्ति वित्तः विदन्ति जानाति इत्यर्थे विदधातुः अस्ति सत्ता विद्यते नाम अस्ति इत्यर्थे विद्यते इति भवति प्राप्नोति सम्पादयति इत्यर्थे विन्दते इति भवति विद् लाभे सो धातोः अर्थः भिन्नः सो विदसत्तायां विद्यते इत्यस्य अस्ति इत्यर्थः सो विद लाभे विन्दते इत्यस्य प्राप्नोति लभते इत्यर्थः विदज्ञाने सो वेत्ति इत्यस्य जानाति इत्यर्थः सो अन्यदपि अस्ति विन्ते इति धातुः अतः धातुः समानः अर्थः भिन्नः भिन्नेषु गणेषु अस्ति अतः रूपम् अपि भिन्नं भिन्नं भवति अग्रे गच्छामः अद्य श्लोकद्वयस्य एतत् कुर्वन्तु गृहे अग्रिमवर्गे चर्चां कुर्मः सामान्यम् अर्थं वदामि अत्र ततः पूर्वम् एकः प्रश्नः यदि संशयाः सन्ति तत् कथं प्रष्टव्यम् इति कृपया अस्माकम् एकम् ईमेल् प्रेषयतु sanskritfromhome@vyomalabs.in अत्रैव अस्ति ईमेल् तत् सो केन् सी द ईमेल् अड्रेस् हियर् sanskritfromhome@vyomalabs.in सो पूर्वतनवर्गेषु वा अस्मिन् वर्गे वा यत्र कुत्रापि सन्देहः सन्ति चेत् कृपया ईमेल् प्रेषयन्तु ऐ विल् ट्रै टु आन्सर् एस् सून् एस् पासिबल् कदाचित् द्वित्रदिनानां विलम्बः भवितुम् अर्हति किन्तु निश्चयेन उत्तरं दास्यामि पूर्वतन अभ्यासानाम् उत्तराणि तत्रैव सन्ति गतवर्गस्य उत्तरं न स्थापितं स्यात् बट् बिफोर् दट् सर्वेषां वर्गाणाम् उत्तराणि स्थापयामि सर्वं सिद्धमस्ति अप्लोड् करिष्यामि सो तदपि द्रष्टुम् अर्हन्ति इतोपि संशयाः सन्ति चेत् पृच्छन्तु सो शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषस्य विद्वान् सुचिन्तितम् औषधं चौषधमातुराणां न नाममात्रेण करोत्य रोगम् कः अर्थः केवलम् अध्ययनेन ज्ञानेन किमपि प्रयोजनं न भवति क्रिया यस्तु क्रियावान् पुरुषस्य विद्वान् यः किं करणीयम् इति जानाति स एव वस्तुतः विद्वान् केवलं शास्त्रस्य अध्ययनेन प्रयोजनं नास्ति शास्त्रमधीत्यापि मूर्खः नाम किं कर्तव्यम् इति न जानन्ति तादृशाः भवन्ति तस्य एकम् उदाहरणं ददाति
सुचिन्तितम् औषधम् आतुराणाम् आतुरः अत्र रोगी इत्यर्थः यस्य व्याधिः अस्ति तस्य सुचिन्तितम् औषधं बहु सम्यक् वैद्यः विचिन्त्य किं किं करणीयम् इति सम्यक् औषधं वदति किन्तु नाममात्रेण ओ एतत् औषधं स्वीकरणीयम् इति केवलं ज्ञानेन अरोगं न करोति सो मेडिसिन् विल् नाट् रिमूव् डिसीसस् जस्ट् बै इट्स् नेम् सो जस्ट् बै नोयिङ्ग् समथिङ्ग् वन् केनाट् बि कन्सिडर्ड् वैस् It is only when that knowledge is put into action that he becomes wise. Ityartha. Anantaram, Ayatyam gunadoshajnyah, tadatve kshipranishchayah, atite karyasheshajnyah, vipada nabhibhoyate. So, yaha janati ayatyam, ayati nama bhavishyati. So, yatkaryam bhavishyati kartavyam, tatra gunadoshajnyah. तत्र के गुणाः के दोषाः इति यः जानाति तदात्वे तदात्वं नाम तस्मिन् काले नाम वर्तमानकाले क्षिप्रनिश्चयः यः शीघ्रं निश्चयं कर्तुं शक्नोति अतीते यत् कार्यं पूर्वमेव कृतं तत्र कार्यशेषज्ञः शेषः इतोपि किं शिष्यते इति यः जानाति सः विपदा आपदा न अभिभूयते means a person who knows what about the future I mean about something to be done in the future he knows what are the pros and the cons so he thinks well and you know before acting he analyzes what is good and what is bad about it tadatve but something to be done now for the present task Kshipra Nishchayah decides quickly. So if something has to be done now, you cannot do an analysis now. So it has to be done for future. For the present, you have to take a quick decision and act. Atite, but for the past, something which has already been done, Karya Sheshajnyah, he who knows what is remaining. So is it completely done or are there some loose ends which need to be tied? So he who knows all these three, so for the future, analyze what is good and bad. For the present, take a quick decision and act. For the past, see what is remaining and complete it. So tadrishaha, he who does all these, vipada na abhibhuyate. So he is not, abhibhava is defeated by troubles. That is, he does not face problems much. इत्यर्थः okay. एषः सामान्यः अर्थः वाक्यविश्लेषणम् अन्वयरचनां च कुर्वन्तु अग्रिमवर्गे चर्चां कुर्मः अद्य पूर्वसवर्णसन्धिः छत्वसन्धिः च ज्ञातः सुभाषितेषु त्रयः सुभाषिताः अधीताः अग्रिमवर्गः अग्रिमशनिवासरे सेप्टेम्बर् मासस्य द्वाविंशे दिनाङ्के भविष्यति गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो धन्यवादः